स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत् संस्मृतिचक्रं भ्रमतीत्थं यस्मिन् दृष्टे नश्यति तत् संस्मृतिचक्रम् तं संसारध्वान्तविनाशं हरिनीडे तं संसारध्वान्तविनाशं हरिनीडे यस्यैकांशाधित्तमशेषं जगदेतत् प्रादुर्भूतं येन पिनत्थं पुनरेत्थं येन व्याप्तं येन विबुद्धं सुखदुःखैः तं संसारध्वान्तविनाशं हरिणीरे तं संसारध्वान्तविनाशं हरिमीरे सर्वज्ञो यो यश्चै सर्व सकलो यो यश्चानन्दो नन्दगुणो यो गुणधाम यश्चाव्यक्तो व्यस्त समस्त सदसद्यः तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे यस्मादन्यं नास्त्यपि नैवं परमार्थं दृश्यादन्यो निर्विषयज्ञानमयत्वात् ज्ञातृज्ञानज्ञेयविहीनोऽपि सदाज्ञः तं संसारध्वान्तविनाशं हरिमीरे संसारध्वान्तविनाशं हरिमीरे आचार्यो यो लब्धसुसूक्ष्माच्युततत्त्वा वैराग्येणाभ्यासबला चैव दृढिन्न भक्तेकाग्रध्यानपरायं विदुरीशं तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे प्राणानायं योमिति चित्तं हृदि रुद्ध्वा नान्यत् स्मृत्वा तत् पुनरत्रैव विलाप्य क्षीणे चित्ते भादृशिरस्मिनिर्विगुह्यं तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे यं ब्रह्माख्यं देवमनन्यं परिपूर्णं हृत्स्थं भक्ते लभ्यगजं सूक्ष्ममतर्क्यं ध्यात्वात्मस्थं ब्रह्मविदोऽयं विदुरीशम् तं संसारध्वान्तविनाशं हरिमीरे तं संसारध्वान्तविनाशं हरिमीरे भावातीतं स्वात्मविकासात्मविबोधं ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य भावग्राह्यानन्दमनन्यं च विदुर्यं तं संसारद्वान्दविनाशं हरिनीडे तं संसारद्वान्दविनाशं हरिनीडे यद्वद्वेद्यं वस्तु सतत्त्वं विषयाख्यं तद्ब्रह्मैवैति विदि तदहं च ध्यायन्त्येवं यं सनकाद्यामुनयोजं तं संसारध्वान्तविनाशं हरिमीडे तं संसारध्वान्तविनाशं हरिमीडे यद्यद्वेद्यं तत्तदहं नेति विहाय स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य तस्मिन्नस्मिद्यात्मविदोऽयं विदुरीशम् तं संसारद्वान्तविनाशम् हरिमीडे तं संसारद्वान्तविनाशं हरिमीडे।